अथ नन्दिघोषरथस्तोत्रम्। नन्दिघोषो महाप्राज्ञो जगन्नाथस्य स्यन्दनः पञ्चाङ्गुलोत्तरो दीर्घस्त्रयस्त्रिंशद्भुजस्मृतः द्वात्रिंशदधिकैरष्टशतैश्च काष्ठखण्डकैः निर्मितोऽयं रथः पीठक कनकमयीचनामकः सारथिर्दारुकश्चैव शङ्खचक्रे रथायुधे जय विजय रूपौ तौ द्वारपालौ मनोहरौ षोडशसिद्धिचक्राणि पीतलोहितसुन्दरः शङ्खचूडोरगोरज्जुष् शङ्खचक्रवलाहकः हरिदश्वाश्च घोटकाश्श्वेतवर्णाः सुशोभनाः रक्षको गरुडस्तत्र ध्वजस्त्रैलोक्यमोहनः विश्वकर्मास्य शिल्पी स्यान् नवास्युः पार्श्वदेवताः लक्ष्मीं संवरयन्दरं विदलयं स्तापं महाखण्डयन् भक्तानाकलयन् सुखैचरसयन् सम्पालयन् सत्वरं यात्रां संवरयन् पहण्डि विलसन् मास्वादयन् गुण्डिचां सम्पश्यन् जगदीश्वरो विलयते श्रीनन्दिघोषोपरि गच्छन्तं रथनन्दिघोषसहितं प्रस्वादयन्तं मधुं सिञ्चन्तं सुखशीतलैजलधरं प्रक्षालयन्तं मुखं गुञ्जन्तैजयनायकं ध्वनिगुणन् धिक्कारयन्तं शठन् नन्दन्तैजनमानसं हरिवरं विभ्राजयन्तं भजे इति नन्दिघोषरथस्तोत्रं सम्